चेतो दर्पणमार्जनम् भवमहादावाग्नि निर्वापनम् श्रेयः कैरवचन्द्रिकावितरणम् विद्यावदो जीवनम् आनन्दाम्बुदीवर्धनम् प्रतिपदम् पूर्णामृत स्वादनम् सर्वात्मस्नपनम् परम् विजयते श्रीकृष्ण संकीर्तनम् नामकारि बहुधा निज सर्वशक्ति तत्रार्पिता नियमितः स्मरणेन कालः एतादृशी तव कृपा भगवन् ममापि दुर्दैवमीदृशमिहाजनि नानुरागः तृणादपि सुनीचेन तरोरपि सहिष्णुना अमानिनामानदेन कीर्तनीयः सदा हरिः न धनं न जनं न सुन्दरी कवितां वा जगदीश कामये मम जन्मनि जन्मनीश्वरे भवताद् भक्तिरहैतुकी त्वयि अयिनन्दतनुजा किङ्करम् पतितं मां विषमे भवाम्बुधो कृपया तव पादपङ्कजं स्थितदूलिसदृशं विचिन्तय नयनं गलदश्रुधारय वदनं गद्गद् हृदयागिरा पुलकैर्निचितं वपुः कदा तव नाम गृहणे भविष्यति युगायितं निमेषेन चक्षुषा प्रावृषायितम् शून्यायितं जगत् सर्वं गोविन्दविरहेण मे आश्लिष्य वा पादरतां पिनस्तु माम् अदर्शनान् मर्महतां करोतु वा यता तथा वा विदधातु लम्पटो मत्प्राणनाथस्तु स एव नापरः हरे कृष्णा 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 हरे 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 राम 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 हरे हरे श्री चैतन्य शिक्षाष्टकम् की